ॐ नमो भगवते वासुदेवाय श्रीमद्भागवत महापुराणम् प्रथमः स्कन्दः अथ प्रथमोऽध्यायः जन्मादियस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञस्वराट् तेने ब्रह्महृदाय आदिकवये मुह्यन्ति यत्सूरयः तेजो वारिमृदाम् यथा विनिमयो यत्र त्रिसर्गो मृषा धाम्ना स्वेन सदा निरस्तकुहकम् सत्यम् परम् धीमहि धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणाम् सताम् वेद्यम् वास्तवमत्र वस्तु शिवदम् तापत्रयोन्मूलनम् श्रीमद्भागवते महामुनिकृते किं वा परहिरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् निगमकल्पतरुर्गलितम् फलम् सुखमुखादमृतद्रवसंयुतम् पिबत भागवतम् रसमालयम् मुहुरहो रसिका भुवि भावुकाः नैमिषे निमिषक्षेत्रे ऋषयः शौनकादयः सत्रम् स्वर्गाय लोकाय सहस्रसममासत तैकदातुमुनयः प्रातर्हुतहुताग्नयः सत्कृतम् सूतमासीनम् प्रप्रच्छूरिदमादरात् ऋषय ऊचुः त्वया खलु पुराणानि सेतिहासानि चानघ आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत यानि वेदविदाम् श्रेष्ठो भगवान् वादरायणः अन्ये च मुनयः सूत परावरविदो विदुः वेत्थ त्वम् सौम्य तत्सर्वम् तत्त्वतस्तदनुग्रहात् ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत तत्र तत्राञ्जसा युष्मन् भवता यद्विनिश्चितम् पुंसामेकान्ततः श्रेयस्तन्न संशितुमर्हसि प्रायेणाल्पयुषः सभ्य कलौ अस्मिन् युगे जनाः मन्दाः सुमन्दमतयो मन्दभाग्यायुपद्रुताः भूरिणि भूरि कर्माणि श्रोतव्यानि विभागशः अतः साधोऽत्र यत्सारम् समुद्धृत्य मनीषया ब्रूहिणः श्रद्दधानानाम् येनात्मा सम्प्रसीदति सूतदानासि भद्रन्ते भगवान् सात्वताम् पतिः देवक्यां वासुदेवस्य जातो यस्य चिकीर्षया तन्न शुश्रूषमाणानाम् अर्धस्यङ्गानुवर्णितम् यस्यावतारो भूतानाम् क्षेमाय च भवाय च आपन्नः संस्थितिम् घोराम् यन्नाम विवशो गृणन् तथ सद्यो विमुच्येत यद्बिभेति स्वयम् भयम् यत्पादसंशयः सूत मुनयः प्रशमायनाः सद्यः पुनन्त्युपस्पृष्टा स्वर्धन्यापोऽनुसेवया को वा भगवतस्तस्य पुण्यश्लोकेऽद्य कर्मणः शुद्धिकामो न शृणुयाद्यश कलिमलापहम् तस्य कर्माण्युदाराणि परिगीतानि सूरिभिः ब्रूहिणः शब्दधानानाम् लीलया दधत कलाः अथाख्या हि हरेर्धीमन्नवतारकथाः शुभाः लीला विदतः स्वैरमीश्वरस्यात्ममायया वयम् तु न वितृप्याम उत्तम श्लोक विक्रमे यच्छिण्वताम् रसज्ञानाम् स्वादु स्वादु पदे पदे कृतवान् किल वीर्याणि सह रामेण केशवः अतिमर्त्यानि भगवान् गूढः कपटमानुषः कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् आसीना दीर्घसत्रेण कथायाम् सक्षणा हरेः त्वम् न सन्दर्शितो धात्रा दुसरम् निस्थितीर्षताम् कलिम् सत्वरम् पुंसाम् कर्णधार इवार्णवम् ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये सर्धर्मवर्मणि स्वाम् काष्ठाम् मधुनोपेते धर्मः कम् शरणम् गतः इति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् प्रथमस्कन्धे नैमिषेयोपाख्याने प्रथमोऽध्यायः।